इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अमेरिकादेशस्य राष्ट्रपतिना डोनाल्ड ट्रम्पेण सह दौर्भाषिक सम्पर्को विहितः। एकस्मिन् सामाजिक प्रसारमाध्यमे श्रीमोदी अवदत् यद् उभौ नेतारौ पश्चिम एशिया क्षेत्रस्य स्थितिं चर्चयन्तौ होर्मोज जलसन्धिं मुक्तं सुरक्षितञ्च स्थापयितुं महत्वं प्रतिपादितवन्ताविति। श्रीमोदी अवदत् यद् उभयपक्षौ सर्वेषु क्षेत्रेषु स्वस्य समग्र वैश्विक सामरिक सहभागित्वस्य सुदृढीकरणाय प्रतिबद्धौ स्तः। प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य कर्णाटकस्य एकदिवसीया यात्रा करिष्यते। यात्रावधौ श्रीमोदी मण्ड्या जनपदस्य श्रीक्षेत्र आदिचुञ्चनगिरि इत्यत्र श्रीगुरु भैरवैक्यमन्दिरस्य उद्घाटनं करिष्यति। अस्मिन् अवसरे सः सभामेकामपि सम्बोधयिष्यति। प्रधानमन्त्री पूर्वप्रधानमन्त्रिणा एच डी देवगौड़ा इत्यनेन सह सौन्दर्यलहरी शिवमहिम्नस्तोत्रम् इत्येतयोः पुस्तकयोः संयुक्तरूपेण विमोचनं करिष्यति। बिहारस्य उपमुख्यमन्त्री बीजेपीति दलस्य नेता सम्राट चौधरी अद्य राज्यस्य नूतन मुख्यमन्त्रिरूपेण शपथं ग्रहीष्यति। राज्ये सर्वोच्च पदग्राहकत्वेन सः प्रथमः भाजपेति दलनेता भविष्यति। अद्य प्रातः एकादशवादने पटनानगरस्य लोकभवने शपथग्रहणसमारोहः भविष्यति। श्रीचौधरी लोकभवने ह्यः राज्यपालं लेफ्टिनेंट जनरल सेवानिवृत्तः सैयद अस्ता हसनेन इत्येतं मिलित्वा सर्वकारस्य निर्माणाय आग्रहं कृतवान्। वार्ताकारैः सह वार्तालापं कुर्वन् तारापुरस्य भाजपेति दलविधायकः सम्राट चौधरी बिहारस्य जनानां सेवायां तेषां विश्वासस्य स्वप्नानां च साक्षात्कारस्य अवसरोऽयमस्तीति अवधानं दत्तवान्।
आदरणीय नीतीश कुमार जी ने बहुत सी चीजें सिखाया, कैसे सरकार चलाया जाता है, कैसे बिहार में सुशासन स्थापित होगा, बिहार के लोकतंत्र के लिए, बिहार के विकास के लिए, बिहार की समृद्धि के लिए। जिस तरह आदरणीय प्रधानमंत्री जी ने विकसित भारत का सपना देखा है, आज के मुख्यमंत्री नीतीश कुमार जी ने जिस तरह समृद्ध बिहार का सपना देखा है, हम तमाम भाई मिलकर इस बिहार को भी समृद्ध बनाएंगे।
राष्ट्रपति पदासीना द्रौपदी मुर्मू अद्यारभ्य महाराष्ट्रस्य द्विदिवसीय यात्रायां भविष्यति। राष्ट्रपतिः अद्य प्रातः एम्स नागपुर इत्यस्य द्वितीय दीक्षांत समारोहे भागं ग्रहीष्यति। अनन्तरं सायंकाले नागपुर नगरस्य राष्ट्रिय प्रत्यक्ष कर अकादम्यां भारतीय राजस्व सेवायाः आयकरस्य प्रशिक्षु अधिकारिणाम् अष्टसप्ततितम समूहस्य प्रशिक्षण समारोहे भागं ग्रहीष्यति। प्रवासस्य द्वितीये दिने राष्ट्रपतिः मुर्मुः श्वः वर्धानगरे महात्मा गांधी अन्ताराष्ट्रिय हिन्दी विश्वविद्यालयस्य षष्ठे दीक्षांत समारोहे भागं ग्रहीष्यति। पश्चिम बंगाल राज्य तमिलनाडु राज्ययोः विधानसभा निर्वाचनाय प्रचाराभियानं पूर्णरूपेण प्रचलति। विभिन्न दलानां प्रमुखाः नेतारः मतदातृन् आकर्षयितुं सार्वजनिक सभां आयोजयन्ति, जनसभाञ्च सम्बोधयन्ति। दलस्य वरिष्ठः नेता केन्द्रीय गृहमन्त्री अमित शाहः अद्य राज्ये अनेकाः जनसभाः करिष्यति। ह्यः भाजपा पक्षस्य वरिष्ठः नेता प्रधानमन्त्री च नरेन्द्र मोदी नमो एप इति माध्यमेन मेरा बूथ सबसे मजबूत इति संवादानन्तरं पश्चिमबंगस्य दल कार्यकर्तृभिः सह वार्तालापं कृतवान्। उत्तरप्रदेश सर्वकारेण अकुशलानां अर्धकुशलानां कुशलानाञ्च श्रमिकवर्गाणां मानदेयः प्रायः 3,000 रूप्यकाणि यावत् वर्धितास्ति। परिणामतः 21% वृद्धिः अभवत्। छत्तीसगढ़ राज्यस्य शक्ति जनपदस्थे वेदांता लिमिटेड विद्युत संस्थाने वायलर इत्यनेन सह सम्बद्धस्य वाष्पवाहक नलिकायाः विस्फोटनेन न्यूनातिन्यूनं 13 कर्मकराः मृताः, 21 अन्ये व्रणिताः इति आरक्षकाः ह्यः अवदन्। प्रधानमन्त्रिणा नरेन्द्रमोदिना अस्यां दुर्घटनायां मृतानां जनानां विषये शोकः प्रकटितोऽस्ति। सामाजिक माध्यमे श्रीमोदी प्रत्येकस्मै मृतकस्य निकटवर्तिने प्रधानमन्त्री राष्ट्रिय रिलीफ इति कोषात् 2,00,000 रूप्यकाणां व्रणितेभ्यः 50,000 रूप्यकाणाञ्च अनुग्रह धनस्य घोषणाम् अकरोत्। आईपीएल क्रिकेट क्रीडायां गतरात्रौ चेन्नई नगरस्य एमए चिदम्बरम क्रीडांगणे चेन्नई सुपर किंग्स इति दलेन कोलकाता नाइट राइडर्स इत्येतं 32 धावनांकैः पराजयत् इति वार्ताः।